ಸೇನಾಕ್ಷರ ಸಮಾಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ಮಾಸ್ತುಕಾರಂ ವರದಸಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಸ್ಕಣದೋಷ್ಣುನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದಸ್ತೀಶ್ವರಿ ಭಾಗ್ಯಚ ಯಯ್ಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ವಿರಚ್ಯತೆ. ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಾ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ ಪ್ರಕರಣೆ ಸ್ಮಃ. ಚತುರ್ಥೀ ವಿಭಕ್ತೋ ಕಾರಕ ಚತುರ್ಥೀ ಅಧೀತ. ಕಾರಕ ಚತುರ್ಥಿ ಚತುರ್ಥಿ ಸಂಪ್ರದಾನೆ ಇತಿ ಸೂತ್ರೇಣ ಸಂಪ್ರದಾನ ಕಾರಕಸ್ಯ ಚತುರ್ಥೀ ವಿಭಕ್ತಿ ವಿಧೀಯತೆ. ಸಂಪ್ರದಾನ ಕಾರಕಂ ನಾಮ ಕಿಂ ಇತಿ ಪ್ರಶ್ನೆ. ಸಂಪ್ರದಾನ ಸಂಜ್ಞಾ ವಿಧಾಯಕಾನಿ ಬಹೂನಿ ಸೂತ್ರಾನಿ ಸಂತಿ. ಕರ್ಮಣಾ ಯಮಭಿಪ್ರೈತಿ ಸ ಸಂಪ್ರದಾನಂ. ದಾನಕ್ರಿಯಾಯಾಹ ಉದ್ದೇಶ್ಯಂ ದಾನಕ್ರಿಯಾಯಾಹ ಯತ್ ಕರ್ಮ ತಸ್ಯ ಕರ್ಮಣಃ ಉದ್ದೇಶ್ಯಂ ಸಂಪ್ರದಾನ ಸಂಯತಂ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಬ್ರಾಹ್ಮಣಾಯ ರಾಮ್ ಯಚ್ಛತಿ ಮಿತ್ರಾಯ ರಾಮ್ ಯಚ್ಛತಿ ಇತಿ ಉದಾಹರಣಂ. ರುಚ್ಯರ್ಥಾನಾಂ ಕ್ರಿಯಮಾಣಃ ಇತಿ ದ್ವಿತೀಯಂ ಸೂತ್ರಂ. ರುಚ್ಯರ್ಥಾನಾಂ ಪ್ರಯೋಗೇ ಕ್ರಿಯಮಾಣಃ ಅರ್ಥಃ ಸಂಪ್ರದಾನ ಸಂಯತಃ ಭವತಿ. ಹರಯೇ ಭಕ್ತಿಃ ರೋಚತೆ ಇತ್ಯತ್ರ ಹರಿಃ ಭಕ್ತ್ಯಾ ಪ್ರೀಯತೆ ಇತ್ಯತಃ ಹರೇಃ ಸಂಪ್ರದಾನ ಸಂಯಾ ವಿಹಿತ. ಶ್ರಾವನ್ ಹಿಂಸಾಶಪಾಂ ನೀತ್ಯಮಾನಃ ಏತೇಷಾಂ ಧಾತೂನಾಂ ಪ್ರಯೋಗೇ ಶ್ರಾಸತೆ ನೃತೆ ತಿಷ್ಠತೆ ಶಪತೆ ಇತ್ಯೇತೇಷಾಂ ಪ್ರಯೋಗೇ ಯಃ ಬೋಧಯಿತುಂ ಇಷ್ಟಃ ಸಮಸ್ಯರ್ಥಂ ಬೋಧಯಿತುಮೇವ ಏತೇಷಾಂ ಪ್ರಯೋಗಃ ಭವತಿ. ಯಃ ಬೋಧಯಿತುಂ ಇಷ್ಟಃ ತಸ್ಯ ಸಂಪ್ರದಾನ ಸಂಯಾ ಭವತಿ ಅನೇನ ಸೂತ್ರೇಣ. ಗೋಪೀ ಸ್ಮರಾತ್ ಕೃಷ್ಣಾಯ ಶ್ಲಾಘತೆ ಮೂತೆ ತಿಷ್ಠತೆ ಶಪತೆ ಇತ್ಯಾದೀನಿ ಉದಾಹರಣಾನಿ. ಧಾರೇ ಉತ್ತಮರ್ಣಃ ಉತ್ತಮರ್ಣಃ ಯಃ ಋಣಂ ಪ್ರಯಚ್ಛತಿ ಸಹ ಉತ್ತಮರ್ಣಃ ಯಃ ಋಣಂ ಸ್ವೀಕರೋತಿ ಸಹ ಅಧವರ್ಣಃ. ಧಾರಯತೇಃ ಪ್ರಯೋಗೇ ಉತ್ತಮರ್ಣಸ್ಯ ಸಂಪ್ರದಾನ ಸಂಯಾ ಭವತಿ. ಹರಿಃ ಭಕ್ತೇಭ್ಯಃ ಅಥವಾ ಭಕ್ತಾಯ ಮೋಕ್ಷಂ ಧಾರಯತಿ. ಭಕ್ತೈಃ ಯದ್ದ್ರವ್ಯಂ ದೀಯತೆ ಭಕ್ತಿಪೂರ್ವಕಂ ವಸ್ತ್ರಂ ವಾ ಪುಷ್ಪಂ ವಾ ಯತ್ಕಿಂಚಿತ್ ತಸ್ಯ ಪ್ರತ್ಯರ್ಪಣರೂಪೇಣ ಹರಿಃ ತೇಭ್ಯಃ ಮೋಕ್ಷಂ ಯಚ್ಛತಿ. ಇತ್ಯರ್ಥೇ ಭಕ್ತಃ ಉತ್ತಮರ್ಣಃ ಯತೋಹಿ ಸ ಏವ ಪೂರ್ವಂ ದ್ರವ್ಯಂ ದದಾತಿ. ಅತಃ ತಸ್ಯ ಚತುರ್ಥೀ ವಿಭಕ್ತಿಃ ಭವತಿ. ಸೃಹೇರಿಕ್ಷಿತಃ ಸೃಹಧಾತೋಃ ಪ್ರಯೋಗೇ ಇಚ್ಛಿತಃ ಅರ್ಥಃ ಯದ್ ಇಷ್ಯತೆ ತಸ್ಯ ಚತುರ್ಥೀ ವಿಭಕ್ತಿಃ ಭವತಿ. ಬಾಲಕಃ ಪುಷ್ಪೇಭ್ಯಃ ಸೃಹಯತಿ ಇಚ್ಛತಿ ಪುಷ್ಪಾಣಿ ಇಚ್ಛತಿ ಇತ್ಯರ್ಥಃ. ಯದಾತು ಇಚ್ಛಿತ ತಮತ್ವಂ ಸಕರ್ಷೇಣ ಇಚ್ಛಿತತ್ವಂ ಯೋಜಯಿತುಂ ಇಷ್ಯತೆ ಅಥವಾ ವಿವಕ್ಷ್ಯತೆ ತದಾತು ಕರ್ಮಸಂಯಾಯ ಭವತಿ ದ್ವಿತೀಯ ಸಪ್ತಿಃ ಪುಷ್ಪಾಣಿ ಸ್ಪೃಹಯತಿ ಇತ್ಯಪಿ ಭವತಿ. ಸೃಹದೃಹೇಷ್ಯ ಸೂರ್ಯಾರ್ಥಾನಾಂ ಯಂ ಪ್ರತಿ ಕೋಪಃ ಏತೇಷಾಂ ಧಾತೂನಾಂ ಪ್ರಯೋಗೇ ಯಮುದ್ದಿಶ್ಯ ಕೋಪಃ ಭವತಿ ತಸ್ಯ ಸಂಪ್ರದಾನ ಸಂಯಾ ಭವತಿ. ಹರಯೇ ಕೃಧ್ಯತಿ ಹರಯೇ ದೃಶ್ಯತಿ ಹರಯೇ ಏಷ್ಯತಿ ಹರಯೇ ಅಸೂಯತಿ ಇತ್ಯಾದಿ ಏತೇ ಸರ್ವೇ ಕೋಪ ಪ್ರಭವಾಃ ಇತ್ಯಪಿ ದೃಷ್ಟಂ. ಯದ್ಯಪಿ ಕ್ರೋಧ ದ್ರೋಹ ಏಷ್ಯ ಅಸೂಯಾನಾಂ ಮಧ್ಯೆ ಅರ್ಥಭೇದಃ ವಿದ್ಯತೆ ತಥಾಪಿ ಸರ್ವೇ ಕೋಪಮೂಲಕಾಃ ಏವ ಅತಃ ಯಂ ಪ್ರತಿ ಕೋಪಃ ವಿದ್ಯತೆ ತಸ್ಯ ಸಂಪ್ರದಾನ ಸಂಯಾ ವಿಧೀಯತೆ. ಯದಾತು ಕೃಧಧಾತುಃ ದೃಢಧಾತುಃ ವಾ ಉಪಸರ್ಗಪೂರ್ವಕೋ ಭವತಿ ಉಪಸೃಷ್ಟಯೋಃ ಕೃಧದ್ರುಹೋಃ ಉಪಸೃಷ್ಟಯೋಃ ಕರ್ಮ. ಯದಾ ಉಪಸರ್ಗಪೂರ್ವಕಂ ಪೂರ್ವಕೇ ಪೂರ್ವಕೌ ಇಮೇ ಧಾತು ತದಾ ಸೇವ ಅರ್ಥಃ ಅರ್ಥಾತ್ ಯಂ ಪ್ರತಿ ಕೋಪೋ ವಿದ್ಯತೆ ಸಹ ಕರ್ಮ ಸಮ್ಯಕಃ ಭವತಿ ನತು ಸಂಪ್ರದಾನ ಸಮ್ಯಕಃ. ಹರಿಂ ಅಭಿಕೃಧ್ಯತಿ ಹರಿಂ ಅಭಿದೃಹ್ಯತಿ ಇತ್ಯುದಾಹರಣಂ. ಅಗ್ರಿಮಂ ಭವತಿ ರಾಧಿಶ್ಯೋರ್ಯಸ್ಯ ವಿಪ್ರಶ್ನಃ ಇದೆ. ರಾಜಧಾತೋಃ ಇಚ್ಛಿಧಾತೋಶ್ಚ ಪ್ರಯೋಗೇ ಯಸ್ಯ ವಿಷಯೇ ವಿವಿಧ ಪ್ರಶ್ನಃ ಕ್ರಿಯತೆ. ರಾಧತೆ ಇಚ್ಛತೆ ಇತಿ ಅಸ್ಮಿನ್ ಪ್ರಕರಣೆ ರಾಜಧಾತೋಃ ಇಚ್ಛಿಧಾತೋಶ್ಚ ಶುಭಾಶುಭ ಪರ್ಯಾಲೋಚನಂ ಇತ್ಯರ್ಥಃ. तस्मिन्नेव अर्थे यदा इमो धातु भवतः तदा यस्य विषये तादृशं प्रश्नः क्रियते अर्थात् शुभाशुभ फलदृष्ट्या प्रश्नः क्रियते कृष्णाय राध्यति कृष्णाय इच्छते इत्युक्ते कृष्णविषये तस्य जातकादिकं ग्रहबलादिकं दृष्ट्वा शुभाशुभ फलं वदति इत्यर्थः यस्य विषये एतादृशं कार्यं भवति तस्य सम्प्रदानसंज्ञा भवति प्रत्याङ्ग्यां श्रुवः पूर्वस्य कर्ता श्रु धातुः प्रतिपूर्वकः अथवा आङ्पूर्वकः प्रतिशृणोति आशृणोति इति प्रतिशृणोति आशृणोति इत्येतयोः धातोः प्रतिज्ञा इत्यर्थः अर्थात् अहं तुभ्यं किञ्चित् ददामि इति या प्रतिज्ञा क्रियते तस्यैव प्रतिश्रवणम् आश्रवणम् यदा कश्चित् किञ्चित् याचते somebody asks you for something and you promise to give it तस्यैव प्रतिश्रुणोति आश्रुणोति इत्यर्थः तदा पूर्वस्य कर्ता यः याचते पूर्वं यः प्रार्थनां करोति तस्य सम्प्रदानसमयः भवति अर्थात् विप्राय गां प्रतिश्रुणोति अ किङ्ग् प्रामिसेस् टु गिव् अ ब्राह्मिन् अ कौ ब्राह्मणः पूर्वम् आगत्य राजानं याचते मह्यं गां देहि इति राजा तथास्तु इत्युक्त्वा तस्मै गां दातुं वचनं ददाति अत्र पूर्वतनव्यापारस्य अर्थात् प्रार्थनारूपस्य व्यापारस्य कर्तुः सम्प्रदानसमयः भवति अनुप्रतिगृणश्च एवमेव अनुगृणाति प्रतिगृणाति अनु इत्युपसर्गपूर्वकस्य प्रति इत्युपसर्गपूर्वकस्य च दृ शब्दे इति धातोः अनुगृणाति प्रतिगृणाति इत्येतयोः प्रशंसा इत्यर्थः प्रशंसा कस्मिन् विषये केनचित् किञ्चिदुच्यते तद्विषये प्रशंसा अनुगृणाति प्रतिगृणाति इत्येताभ्यां धातुभ्यां विद्यते सो इनिशियलि समबडी सेस् समथिङ्ग् एन् एन्करेज्मेण्ट् regarding that feature, whatever he says, is called anugrinati and is indicated by anugrinati or pratigrinati. Ayohu prayoga yaha prathamam vakti sasya sampradana samyam bhavati. Tasnati danim balakaha kinchit vadati tam pita prashamsati che balakaya anugrinati ityadi. Ayohu hotre anugrinati iti pustakoktam udaharanam. Hota adau mantram vrishaha rigvedasya पठनं करोति तम् अन्यः यदा प्रोत्साहयति सदा अनुगृणाति प्रतिगृणाति होत्रे अनुगृणाति होत्रे प्रतिगृणाति इति तदर्थीविभक्तिर्भवति परिक्रयणे सम्प्रदानम् अन्यतरस्य परिक्रयणं नाम एतकाले भृत्या स्वीकरणम् इति उक्तं हायरिङ्ग् आर् कण्ट्राक्टिङ्ग् सम्बडि फार् अ पर्टिक्युलर् टैम् फार् अ स्पेसिफिक् टैम् इस् काल्ड् परिक्रयण सो परिक्रयणे वितरितेन सम्प्रदानसमयः भवति करणस्य साधकतमस्य दट् विच् यु हयर् से इट् मैट् बि मनी आर् इट् मैट् बि सम् मेटीरियल् दट् विच् यु हयर् तस्य साधकतमस्य विकल्पेन सम्प्रदानसमयः भवति शतेन क्रीतः शताय क्रीतः हि वास् हयर्ड् फार् हण्ड्रेड् रुपीस् इत्यर्थे शतेन इति साधकतमस्य करणत्वं करणत्वे सति तृतीया विभक्तिः सम्प्रदानत्वे सति चतुर्थी विभक्तिः शतेन परिक्रीतः शताय परिक्रीतः इत्युदाहरणम् इति सम्प्रदानसमय आल् दीस् सूत्रास् डील् वित् सम्प्रदानसमय डैरेक्ट्लि एण्ड् इन् आल् दीस् केसेस् अस् सून् अस् यु गेट् सम्प्रदानसमय चतुर्थी सम्प्रदान इति सूत्रेण चतुर्थी विभक्तिः विधीयते प्रश्नाः सन्ति उत्तमऋणः ऋण इस् अ लोन् हुवर् गिव्स् द लोन् द लेण्डर् इस् काल्ड् उत्तमऋण एण्ड् हियर् हुवर् टेक्स् द लोन् इस् काल्ड् अधमऋण पुष्पाणां स्पृहयति इत्यत्र सम्बन्धविवक्षा पुष्पविषयिणी इच्छा इत्यर्थे सम्बन्धस्य विवक्षायां षष्ठीविभक्तिः भवितुमर्हति सम्बन्ध इस् संथिङ्ग् विच् इस् The sutra itself says Sheshe Shasti. So everything else, whatever is defined in Karaka Prakrana, whatever is particularly defined, other than that everything else falls under the category of Sambandha. It's a huge category. So Vishayata, Pushpa Vishayini, Ichha, इत्यर्थे षष्ठीविभक्तिरपि भवति इत्युच्यते. किन्तु वस्तुतः चतुर्थ्याः द्वितीयायाश्च प्रयोगः एव अधिकतया दृश्यते. दोस् आर् द प्रिफर्ड् यूसेज्. सम्बन्धः एक्साक्ट्लि वाट् इस् द सम्बन्धविवक्षा देर् ऐ लुक् एट् इट् अण्ड् ऐ लेट् यू नो. Any other questions? अग्रे उपपदचतुर्थी आरभ्यते. अन्यैः पदार्थैः योगे यदा चतुर्थी विभक्तिः साक्षात् विधीयते न तु कारकस्य तदा उपपदचतुर्थी इति उच्यते. उपपदचतुर्थ्याम् आदौ एकं वार्तिकं विद्यते, तादर्थे चतुर्थी वाच्या. तस्मै इदं तदर्थं, समथिङ्ग् विच् इस् मेण्ट् फार् सम्बडि, तस्मै इदं तदर्थम् इति उच्यते. इट् इस् काल्ड् तदर्थ. तदर्थ विच् इस् समथिङ्ग् विच् इस् मेण्ट् फार् समथिङ्ग् एल्स्. तदर्थस्य भावः तादर्थ्यम्. भावार्थे प्रत्ययः जस्ट् मीन्स् द intention of meaning it for somebody is called tadarthya. So muktaye harim bhajati iti udaharanam. Harim bhajati, he worships hari. For what? Kimartham kim udeshyam satra etyukte muktihi. Muktyartham harim bhajati. Ataha tadartham nama tadarthyamasti mukti padasya. Mukti shabdasya चतुर्थी विभक्तिः भवति तादर्थ्यस्य तत्त्वात्. बिकास् इट् इस् द पर्पस् आफ् डूयिङ्ग् सम् एक्शन् इस् काल्ड् तादर्थ्य. इन् सच् केसस् दट् पर्पस् द वर्ड् विच् इण्डिकेट्स् द पर्पस् विल् गेट् चतुर्थी विभक्ति. मुक्तये हरिं भजति इति उदाहरणम्. श्रुतिसम्पद्यमाने च इति अग्रिमं वार्तिकम्. सम्पद्यते इत्यस्य कोऽर्थः इति चेत् इकारात्मना उत्पद्यते अथवा परिणमते इत्यर्थः. इट् इस् कन्वर्टेड् टु आर् इट् लीड्स् टु, इट् ट्रान्स्फार्म्स् इट्सेल्फ् इन् टु. तादृशेषु अर्थेषु सम्पद्यमान पदस्य प्रयोगः अस्ति. अभूतप्रादुर्भावः सम्पत्तिः. दट् विच् वास् नाट् सीन् अर्लियर् बट् केन् बि सीन् नौ इस् काल्ड् सम्पत्ति. इट् इस् टु बि बोर्न् or to be created or to be transformed into this form from something else. Okay. Usually it is not direct utpatti of something. Just being born or created is slightly different than this. So there is some raw material which is being transformed into something else. Sada kriptyarthaka dhatu prayoge. क्लुभ धातुः वार्तिकेन्द्रिस्तः तदर्थे अन्येऽपि धातवः सन्ति. तेषां प्रयोगे यः सम्पद्यते, दट् विच् इस् बोर्न् आर् दट् विच् इस् सीन् नौ, विच् इस् न्यूली सीन्, तत्र चतुर्थी भवति इत्यर्थः. भक्तिः ज्ञानाय कल्पते. भक्ति डिवोशन् लीड्स् टु नालेज्. ओके. सो भक्ति इट्सेल्फ् एक्चुअलि भक्ति इट् इस् अ thing of the mind. The bhakti itself is transformed into jnana. Bhakti leads to jnana. Bhakti hi jnanaya kalpate. Bhakti hi jnanaya sampadyate. Bhakti hi jnanaya jayate. Sarvesham aisesham dhatunam sayavartha. Yada bhakti hi bhavati tena eva jnanam utpadyate. So bhakti is the raw material for creation of knowledge. Or bhakti itself is being transformed into knowledge. Asmin urthe किं सम्पद्यते? ज्ञानं सम्पद्यते. वाट् इस् बीङ्ग् बोर्न् इस् ज्ञान. अतः तस्य चतुर्थी विभक्तिः भवति. भक्तिः ज्ञानाय कल्पते. उत्पातेन ज्ञापिते. उत्पातः नाम कः? अशुभसूचकः आकस्मिकः भूतविकारः उत्पातः. something in the nature, a natural, it's not a calamity, utpada, it is some change in nature. Akasmikaha bhuta vikaraha, a change in the panchabhutas which make up the nature. Ashubha suchakaha, and which is believed to bring about something bad. Okay. See, there are some things which happen, like there are some signs which are traditionally treated as indicators of impending calamity. Tena sushite arthe, sadashaha utpataha iti uchyate, tena sushite arthe vidyamanat chatukhi bhavati ityartha. ఉదాహరణం పశ్చామస్తే జ్ఞాయతే వాతాయ కపిలా విద్యుత్ విద్యుత్ నామ లైట్నింగ్ ఇట్ ఇస్ జనరలీ వైట్ ఇన్ కలర్ కపిలా విద్యుత్ ఇఫ్ ఇట్ హ్యాపన్స్ టు బి కపిలా ఇస్ రెడిష్ బ్రౌన్ కలర్ సో కపిలా విద్యుత్ ఇఫ్ లైట్నింగ్ హ్యాపన్స్ టు బి రెడిష్ బ్రౌన్ కపిలా ఇన్ కలర్ వాతాయ ఇట్ ఇస్ బిలీవ్డ్ దట్ ఇట్ ఇండికేట్ the arrival of a storm. Mahavatasya suchika vidyata ityartha. Atra kapila vidyata iti utvataha tena kim jnayate vataha bhavet iti jnayate. So from looking at lightning, which is an unnatural phenomenon, I mean, lightning is generally supposed to be white or golden in color. So when it flashes in a kapila varna, it is called utpata because it is bhuta vikaraha. It is a departure from the normal. It is an unusual occurrence and it indicates a storm. Ataha utpata ena jnapite, that which is known by an utpata or that which is indicated by an utpata, that will have chatukhi vibhakti. Vataya kapila vidyate. You too get Panchami Vibhakti, right? But Tasya Atra Kaha Sambandha. Atra, it is not a cause-effect relationship between Vidyut and Vata. Vidyut is not causing Vata and Vata is not causing Vidyut. There is no cause-effect relationship between Vata and Vidyut. Okay? This is just an indicator of Vata. He is not saying that either that lightning is causing vata or that vata is causing lightning. Vata is to be happening somewhere in the future. We assume that nature indicates it by, whenever this kapila vidyut is there, it indicates an impending storm. There is no cause-effect relationship which is intended here. It might be there. I mean, I do not know if a kapila vidyut is due to vata or not. It might be there, might not be there, but it is not intended. It's not vivakshitam. Her thing in Vyakarana is always on what is the vivaksha. The vivaksha here is that the kapila vidyut is an utpata. It is an unnatural phenomenon and that it indicates a vata. That is all the vivaksha. Hita yogeta. Hita shabdasya yoga chatukhi bhakti su bhavati. These are all vartikas. Vartikas are derived from many different, there is some base for the vartika in the sutra. Generally, many vartikas have their base in this sutra or some other sutra. They are not like arbitrarily the vartikas are saying. For example, for this vartika, there is a samasa sutra. I am going to study samasa after this. Chatukhi tadarthartha balihita sukha rakshitaihi. It is a samasa vidhayaka sutra which says, Chatukhi Vibhakti, a word in Chatukhi Vibhakti will combine with all these. Tadartha, Artha, Bali, Hita, Sukha, Rakshita, etc. Now when you look at it, if you have, it says Chatukhi Vibhakti Antam Padam, Ekaihi Sabdaihi Saha Samasyate. Which means what? Tadartha is there. Tadartha Chatukhi Bhave. Initially it should get Chatukhi Vibhakti. There should be a Chatukhi Vibhakti Antam word in Tadartha. Then only it can combine with తస్మిన్నర్థే తదైవ సమాసః భవితుం అర్హతి. కథం చతుర్థీ చతుర్థీ విధాయకమైన సూత్రం నాస్తి కిల ఇతి చేత తదా వార్తికముక్తం తాదర్థే చతుర్థీ వాచ్య. సో ఫ్రమ్ దేర్ వార్తిక ద్వారా ఇస్ డిరైవింగ్ హిస్ వార్తిక సేయింగ్ తాదర్థే చతుర్థీ భవతి. So first, we need to have Chaturthi Vibhakti. Chaturthi Vibhaktyam Satyam, Tasya Chaturthyam Tasya Samaso Bhavati. Iti Vasthyate, Uchyate. Eva Eva Asrati, Hita Yoge. So that's how it's Bali Hita Sukha. Hita Shabdasya, Sukha Shabdasya. Sukha Shabdena Cha, Chaturthyam Tam Samasyate, Iti Uchyate. Chaturthi Katham. So how are we getting Chaturthi in association with Hita and Sukha? Hita Yoge Cha, Iti Vartikam. Nirmitam Vartikakare, na? So in association with the word Hita, whatever is directly associated with it will get Chaturthi. Brahmanaya Hitam. Anenaya Sukha Yogeti iti Vyakhyane Uchyate. So the Vyakhyana says that this Vartika applies not only to Hita but also to Sukha. Brahmanaya Sukham. Vobhyaha Sukham. Ityadi. Ityadi Shu Chaturthi Vibhakti hi Anena Sadhyate. So those are all Vartikas regarding Chaturthi. Chaturthi Vibhakti Sambadhani Vartikas. Sampradane Chaturthi. Chaturthi Sampradane Iti Sutra Karena Uktam. Tataha Vartika Karena Imani Sutrani Pachitani. Imani Vartikani Pachitani. Ethyahati Chaturthi Vibhakti Bhavati. Punaha Sutra Karasya Kramam Ashrayamashtete. Chaturthi Sampradane Kriyatma Pupadasya Karmani Sthani Naham. Iti Agrimam Sutram. Chaturthi Vibhakti Vidhayakam. Sutram. Chatvari padani santi kriyarthopapadasya cha karmani sthaninaha. Chaturthi sampradane yataha chaturthi iti anuvartate. Kriyartha kriya upapadam yasya tasya sthaninaha aprayujyamanasya tumunaha karmani chaturthi syat. Okay, this is something which you need to understand an example and understand Sumun, etc. Phalebhyo yati. Iti udaharanam. Aha arthaha phalebhyo yati. He goes for fruit. Iti sakshad arthaha. Phalani ahartum yati. Iti vastudaha arthaha. So he goes to bring fruit. Iti arthaha pratiyate. Phalebhyo. Shrideva Kutrasya Gitam Kada connection kata bhujite mayana dhyasam. Where was I? Did I finish the yoga, sir? Agrimam Sutram Asti Kriyarthopa Padasthita Karmani Sthani Naha Chatvari Padani Santi Kriyarthopa Padasthita Karmani Sthani Naha Sya Karmani Sthani Naha Chaturthi Sampradane Ishtetaha Chaturthi Iti Anuvartate Kriyartha Kriya Upapadam Yasya Yasya Sthani Naha Aprayujya Manasya Tumunaha Karmani Chaturthi Syat Iti Sutrarthaha. So there are quite a few things to understand here. Phalebhyo yati iti udaharanam. He goes for fruits. For fruits ityasya kahartha agre iti chete. Phalani ahartum yati. He goes to bring fruit. Phalebhyo yati ityasya eva. Phalani ahartum yati iti artha. So he goes to bring fruit. Himasyatra kriya dvayamasi. Phalani ahartum yati. Aharana kriya eka asti. Yana kriya, asad gamana kriya apara vidyate. Kriyartha kriya, aharana kriya eka, yana kriya eka. Yana kriya kimartha iti chet, aharana artha. So what is the gamana kriya meant for aharana? Okay. So kriyartha kriya is the gamana kriya. So this is always seen in tumun. Tumun Prasteya itself is mandated in this sense. When one action is done for the purpose of other action. Patitum Shalam Gatshati. He goes to school to study. Atra Shalagamanam iti eka kriya. Pathanam nama apara kriya. Pathanakriyartham Shalagamana kriya. Nivartyate. Okay. There are always two actions. One action is the purpose of the other action. Okay. Same thing here. Kriyartha kriya. Aharana kriyartha yana kriya. Okay. First thing. Now, tad upapadam bhavati aharana kriyaya. Upapada is a thing which is close to it. So, there is kriyartha kriya is yati iti kriyartha kriya. Tad upapadam. Upapadam nama that which is associated with. It is associated with what? It is associated with aharana kriya. Yana kriya, the going, is associated with bringing. Now, this kriya of bringing, ahartum, aharana kriya, phalebhyo yati ityatra nasti. We are not directly hearing it in phalebhyo yati. Right? Tatra kriya nasti, even though it is intended and it is conveyed, you can understand it. Phalebhyo yati ityatra, phalani ahartum yati ityattaha avagamyate, kintu aharana kriya atra nochyate. That is why we call it thani. Thani is that which was there, but which is not being used. So you say, such as thani naha. Thani naha nama. Hello. What's your name? Was there a break in audio? Okay, my connection seems to be fine. Okay. Halani ahartum yati. Aharana kriya, thani nama, aprayujyavanasya tumunaha karmani. So the tumun, which is actually indicated there, is aprayujyamana. It is not directly being told in the sutra, in the prayoga. Palevyo yati ityatra ashruyate. Adrishasya tumunaha karmani. The karma pada of such a tumunanta. Ahartum iti kriyaeva. Tumunanta kintu kriyaeva. Sasyaha kriyayaha karma padam. Aharanam. Aharana kriyayam karma padam kim. Ipsita tamam kim. Phalani. So phala is the karma. Tadrishasya tadukhi bhakti bhavati. That is the actual padartha. Even though the prayoga phalebhyo yati seems very simple, the sutra, it is not difficult, but you have to understand what exactly he is saying. Kriyarthopapadasya cha karmani sthaninaha. Kriyarthopapadasya sthaninaha karmani chatukhi. This is sutra. Kriyartha upapada. Kriyartha kriya upapadam. Kriyartha kriya. So there are two kriyas. The first kriya is gamana and the second kriya is aharana. Gamana kriya is meant for aharana. Therefore, gamana kriya is called kriyartha kriya. Okay. Tasya upapadam. It is associated with which kriya? The aharana kriya. So this aharana kriya is thani. Thani means that which is the original, I mean that which was there but which has been displaced or which is not being seen. So that is why it is aprayujyamanasya tumunaha. It has to be a tumunanta and it is aprayujyamana, which is not heard in the prayoga directly. Sadrishasya karmanaha. The karma pada of such an action which is indicated by the sentence but which is not directly heard in the sentence. Sadrishasya kriyayaha yat karma padam bhavati satya atra yada tasya kriyayaha prayogaha nasti. If you are directly saying phalani ahartum yati, tadatu aharana kriyayam phalani karma karmatva dvitiya vibhakti bhavati. When you are not using that tumun, yada ahartum ityasya prayogah na kriyate, tada tasya karma padasya chatutthi vibhakti bhavati. Anena sutrena kriyarthopapadasya karmani sthanena iti sutrena chatutthi vibhakti phalebhyo yati. Tadeva uchyate kriyartha kriya nama phalaharanartha yana kriya. Kriyartha kriya nama phalaharanartha yana kriya tadupapadasya नाम यानक्रियायाः उपपदम् भवति स्थानिनः नाम आहर्तुम् इति अध्याहार लब्धे तुमुन्नन्थार्थ आहरणक्रियायाः कर्मणः कर्मपद तस्य आहरणक्रिया विल्ये चतुर्थी विभक्ति. अत्र तादर्थं न भवति वा इति प्रश्नः फलेभ्यः याति. फलार्थं याति इति तादर्थ्यं यदा विवक्षितं तदा तादर्थ्ये चतुर्थी भवितुम् अर्हेत्. It should be possible to get when you are directly saying that the purpose of going is directly fruit. Yada phalanyeva tadartha tadatu tadarthya chatukhi bhavati. Yada phalaharanam yanasya uddeshyam. So, I mean, it's to look at the subtle difference. When phala itself directly is the uddeshyam, tada tadarthya chatukhi bhavitam arhati. यदा तो फलाहरणम उद्देश्य में द क्रिया ऑफ ब्रिंगिंग द फ्रूट इज इंटेंडेड इज विवक्षित एज द उद्देश्य. सो ऐसे फलानी उद्देश्य भवन्ति चेत् फलेभ्यो याति इति तादर्थ्ये चतुर्थी भवितुम् अर्हति. यदा तो फलाहरणम उद्देश्य भवति व्हेन ब्रिंगिंग द फ्रूट इज द पर्पस ऑफ द क्रिया यान क्रिया फलाहरणाय याति इति तादर्थ्ये चतुर्थी. बट दट आहरण इज नॉट बीइंग सोल्ड इन द प्रयोग आहरणक्रिया न श्रूयते तदा कथं चतुर्थी इति चेत् अनेन क्रियार्थोपपदस्य कर्मणि स्थानिनः. पठनाय गच्छति पठनाय गच्छति साधु किन्तु अनेन न. It is you have the next sutra. Directly the next sutra you will have chaturthi. Pathanaya gacchati iti agrima sutra na chaturthi bhakti bhavati. Sadhu prayoga ha. Agre uchyate. Agrima sutra na tatra chaturthi bhakti bhavati. नमस्कुर्मो नृसिंहाय इत्यस्ति. अस्य सूत्रस्य क्रियार्थोपपदस्य च कर्मणि स्थानिनः क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति सूत्रस्य वस्तुतः प्रयोजनम् अत्र दृश्यते. नमस्कुर्मो नृसिंहाय इत्यस्ति. नृसिंहाय नमस्कुर्मः इति प्रयोगः कथं प्रयोगः कथं चतुर्थी इति प्रश्नः. किमर्थम् इति चेत् नृसिंहाय नमः इति साधु तत्र सन्देहः नास्ति. नमस्कस्य स्वाहा सकालं वषड्योगाच्च इति अग्रे भवति तेन नृसिंहाय नमः इति भवति. किन्तु यदा नमस्कुर्मः इति कृ धातोः प्रयोगः अस्ति. सो देयर इज अ डिफरेंस बिटवीन नमः एज एन इंडिपेंडेंट अव्यय एंड नमस्कार वेयर इट इज असोसिएटेड विद द क्रिया ऑफ कृ. यदा कृ धातुः अस्ति नमस्कारः अथवा नमस्कुर्मः नमस्करोति इति क्रियायाः यदा प्रयोगः अस्ति तदा किं भवति नमस्कस्य स्वाहा सधानं वषड्योगाच्च इत्यनेन चतुर्थी विभक्तिः प्राप्नोति. एवमेव कर्तरीक्षिततमं कर्म इत्यनेन कर्मसंज्ञायां कर्मणि द्वितीया इति द्वितीया विभक्तिरपि प्राप्नोति. सो वेन् इट् इस् ओन्ली नमः तदा तु सन्देहः नास्ति बिकास् देर् इस् नो क्रिया देर् क्रिया अपि नास्ति कारकत्वमपि नास्ति. तदा रामाय नमः कृष्णाय नमः गुरवे नमः इति सर्वं साधु. यदा क्रिया अस्ति नमस्करोति इति यदा अस्ति तदा किं वक्तव्यं रामाय नमस्करोति इति वक्तव्यं या रामं नमस्करोति इति वक्तव्यं वा इति चेत् इति प्रश्नः. कर्मणि द्वितीया इत्यनेन द्वितीया विभक्तिर्भवति वा नमस्कस्य स्वाहा इत्यनेन चतुर्थी विभक्तिर्भवति वा इति प्रश्नः. किमुत्तरं स्यात् दिस् इस् करेक्ट् इट् यु थिङ्क् इस् करेक्ट् रामाय नमस्करोति या रामं नमस्करोति. रामं नमस्करोति इत्येव साधु किमर्थम् इति चेत् अयम् न्यायः विद्यते उपपदविभक्तेः कारकविभक्तिः बलीयति. ऑलवेज इफ देयर इज अ क्लैश बिटवीन एन उपपदविभक्ति एंड अ कारकविभक्ति, कारकविभक्ति इज स्ट्रॉन्गर देन एन उपपदविभक्ति, विच मीन्स कारकविभक्ति विल अप्लाई एंड नॉट द उपपदविभक्ति. यथा नमस्करोति इत्यत्र नमः इत्यस्य योगेन चतुर्थी विभक्तिः प्राप्ता, कारकत्वात् द्वितीया विभक्तिः प्राप्ता, द्वितीया विभक्तिरेव भवति, रामं नमस्करोति इत्येव भवति. अतैव सिद्धान्तकौमुद्यामपि मुनित्रयं नमस्कृत्य द्वितीया विभक्तिरेव अस्ति. तर्हि नमस्कुर्मो नृसिंहाय इति चतुर्थी विभक्तिः कदाचित् श्रूयते. फ्यू केसेस् देयर इज हियर चतुर्थी विभक्ति अलोंग विद दिस नमस्कुर्मः, नृसिंहाय नमस्कुर्मः इति प्रयोगः. प्रयोग वय शास्त्रकार कथं तस्य इति चेत् तत्र अनेन सूत्रेण चतुर्थी विभक्तिः साध्यते. क्रियार्थोपपदस्य च कर्मणि स्थानिनः इत्यनेन नृसिंहम् अनुकूलयितुं नमस्कुर्मः इति तुमुनन्तः तत्र अध्याह्रियते. वियर अस्यूमिङ्ग् दट् देर् वास् अ तुमुन् देर् अनुकूलयितुं, टु मेक् हिम् फेवरेबल् वियर् पर्फार्मिङ्ग् द आक्ट् आफ् नमस्कार. तदा किमस्ति अनुकूलनक्रियार्थ नमस्कारक्रिया, क्रियार्थक्रिया तदुपपदं यस्य स्थानिनः, नाम अनुकूलक्रिया अप्रयुज्यमाना, इट् इस् नाट् बीङ्ग् यूस्ड्, तत्र कर्म भवति नृसिंहः. तस्मात् अनेन सूत्रेण चतुर्थी विभक्तिः इति उच्यते. सो इवन् दो यु हाव् इट् इस् नाट् ए डैरेक्ट्लि क्लाश् बिट्वीन् नवः एण्ड् कर्मकारक इस् देयर्, कर्मणः एव चतुर्थी विहितम्. सो द डिफरेन्स् बिट्वीन् यू केन् स्टिल् आस्क् दिस् इस् आल्सो उपपद विभक्ति, बट् देर् इस् अ डिफरेन्स् हियर् ही इस् सेयिङ्ग् कर्मणः चतुर्थी विभक्ति भवति. सो दिस् इस् अ कारक विभक्ति, इट् इस् कर्मकारक, बट् द कर्मकारक इट्सेल्फ इस् गेटिङ्ग् चतुर्थी विभक्ति. ओके, सो देर् इस् इट् इस् लैक् अ काम्बिनेशन् आफ् बोत् उपपद विभक्ति एण्ड् कारक विभक्ति. द कर्मकारक इस् गेटिङ्ग् चतुर्थी विभक्ति इन् दिस् केस्. कर्मकारकमेव भवति किन्तु चतुर्थी विभक्तिः उच्यते. अतः नमस्कुर्मो नृसिंहाय एतादृश उदाहरणसाधनार्थम् इदं सूत्रम् उपयुज्यते. एवं स्वयंभुवे नमस्कृत्य इत्यादावति. सो दीस् आर् आल् एक्साम्पल्स् विच् आर् क्वैट् रेर्. नमस्कृत्य इति धातोः प्रयोगे चतुर्थ्याः प्रयोगः अधिकं न दृश्यते, कदाचित् दृश्यते. यदा दृश्यते तथा तदा एवं समाधानम् उच्यते. So we substantiate those prayers using this sutta. Kriyarthopapadasya cha karmani sthaninaha. Sampradana karakam nasti, karma karakam eva asti. Kriyarthopapadasya cha karmani sthaninaha, karma karakasya chatutthi vibhaktihi uchyate. कर्मणि द्वितीया इति आसीत्. जनरल् विभक्ति फार् कर्मकारक इस् चतुर्थी, सोरि इस् द्वितीया. ओवर्रूलिङ्ग् दट् कर्मकारकस्य चतुर्थी विभक्तिः उच्यते. सो इट् इस् स्टिल् ऐ मीन् एनी विभक्ति इट् इस् मेण्डेटेड् फार् अ कारक इस् अ कारक विभक्ति. इट् नीड् नाट् बि द वन् विच् इस् डैरेक्ट्लि फार् दट् कारक. ऐ मीन् it need not be karmani dvitiya is not the only karaka dvitiya, rather what should I say, this dvitiya is not the only karaka vibhakti for karma karaka. There are other cases. Udaharanartham anyatradi drishtam kila divas karma cha sadhakatam karma samyakam bhavati. So where you are, oh no, sorry, that is not a proper example. That is where you are changing the karaka, and the karaka itself, say karana karakasya अन्या विभक्तिः भवेत्, अथवा कर्मकारकस्य इदानीं चतुर्थी विहिता. एवमेव कर्तृकर्मणोः कृति इत्यनेन कर्तृकारकस्य कर्मकारकस्य च षष्ठी विभक्तिः विधीयते. सो एनिथिङ्ग् विच् गोस् टु कारक एण्ड् माण्डेट्स् विभक्ति फार् अ कारक इस् काल्ड् कारक विभक्ति, एण्ड् यु आर् डैरेक्ट्लि टेलिङ्ग् अ विभक्ति इट् इस् उपपद विभक्ति. सो इवन् दो वि पुट् इट् अण्डर् उपपद चतुर्थी, इट्स् एक्चुलि वि मेण्ट् फार् द कर्मकारकस्य चतुर्थी विभक्ति. अग्रिमं सूत्रमस्ति तुमर्थाच्च भाववचनात्. सुमर्थात् च भाववचनात् इति छेदः चतुर्थी सम्प्रदाने इत्यतः चतुर्थी इति अनुवर्तते भाववचनात् इत्यस्य कोऽर्थः भाववचनाश्च इति सूत्रेण यो विहितः तदन्तात् चतुर्थी स्यात् ऋग्वेदसूत्रक्रमायणष्टाध्यायी सुमुन्नुलौ क्रियायां क्रियार्थायाम् इति सूत्रम् क्रियार्थायां क्रियायाम् उपपदसूतायां भविष्यति काले सुमुन्नुलौ स्तः सुमुन् इस् आल्वेज् मैंडेटेड् इन् केस् आफ् ए क्रियार्था क्रिया वन् क्रिया इस् मैण्ड् फार् द अदर् क्रिया क्रियायां क्रियार्थायां सुमुन्नुलौ सुमुन् प्रत्ययः भवति नुल् प्रत्ययोऽपि भवति वक्तुं याति पाचकः याति इति उदाहरणं दीयते सो भविष्यति काले सो हि विल् कुक् इन् द फ्यूचर् नौ हि इस् गोयिङ्ग् अतः सुमुन् प्रत्ययः भवति क्रियार्थायां क्रियायां सो एस् सून् एस् हि टेल्स् दट् सूत्र इमीडियेट्लि आफ्टर्वर्ड्स् हि सेस् भाववचनाश्च भावे इत्यधिकृत्य विहिताः घञादिप्रत्ययाः क्रियार्थायां क्रियायाम् उपपदभूतायां भविष्यति स्युः इन् द सेम् सेन्स् क्रियायां क्रियार्थायां द मेन् प्रत्ययास् विच् वेर् टोल्ड् वेर् सुमुन् अण्ड् नुल् तस्मिन्नेव अर्थे भाववचनाः नाम भावार्थकप्रत्ययाः अपि भवन्ति अदर् सफिक्स् काल्ड् भाववचन भावे इस् अनदर् अधिकार डोण्ट् वरि अबौट् इट् दिस् इस् आल् अ कृदन्त प्रकरण सो यु हेव् सम् अदर् प्रत्ययास् आल्सो केन् अकर् इन् द सेम् सेन्स् अर्थात् क्रियार्थायां क्रियायाम् उपपदभूतायां भविष्यति काले नाम सुमुन् इत्यस्य यः अर्थः तस्मिन्नेव अर्थे सुमुन् प्रत्ययस्य अर्थे एव भाववचनाश्च इति सूत्रेण अन्ये प्रत्ययाः भवन्ति घञ् इत्यादयः प्रत्ययाः अदर् प्रत्ययास् काल्ड् घञ् दे आर् आल्सो अकरिङ्ग् इन् द सेम् सेन्स् आफ् सुमुन् अत एव सूत्रे उच्यते सुमर्थात् सुमुन् च प्रत्ययस्य यः अर्थः तस्मिन्नेव अर्थे भाववचनात् भाववचनाश्च इति सूत्रेण ये प्रत्ययाः विहिताः तत्प्रत्ययान्तेभ्यः चतुर्थी विभक्तिः भवति यागाय याति इति उदाहरणम् यागः नाम कः अर्थः यष्टुं याति यागक्रियां निर्वर्तयितुं याति यष्टुं याति इति सुमुनन्तप्रयोगः सुमुनः अर्थे अत्र भाववचनाश्च इत्यनेन घञ् प्रत्ययः विहितः याग इत्यत्र घञ् प्रत्ययः अस्ति सः प्रत्ययः तुमुन्नर्थे विहितः अतः यागाय याति इति इत्यत्र सुमर्थाच्च भाववचनात् इत्यनेन चतुर्थी विभक्तिः भवति यागाय याति इत्यस्य यष्टुं याति इत्यर्थः एवमेव इदानीं पठनाय गच्छति इति पृष्टम् पठनम् इत्यत्र लिप् प्रत्ययः भावार्थे पठ्यते इति पठनम् इटिस् अगेन प्रत्यय इन् भावार्थ सुमुन्नर्थे सः प्रत्ययः विहितः दट् लिट् प्रत्यय देर् हेस् बीन् मेण्डेटेड् इन् द सेन्स् आफ् सुमुन् सुमर्थाच्च भाववचनात् इत्यनेन पठितुं याति इत्यर्थः पठनाय याति अतः अनेन सूत्रेण चतुर्थी भवति किमर्थं तादर्थे चतुर्थी न इति प्रश्नः अस्ति एव द्रष्टव्यम् सो वाट् एक्साक्ट्लि इस् डिफैन्ड् अस् तादर्थ्य चेक् इट् औट् वै नाट् तादर्थ्य तत्रापि सुमर्थाच्च भाववचनात् इत्यनेनैव चतुर्थी भवति पाठाय गच्छति इत्यत्रापि तदेव घञ् प्रत्ययः अस्ति पाठः इत्यत्र घञ् यथा यागाय याति तथा पाठाय याति तत्रापि भाववचनाश्च इत्यनेन घञ् पठितुं गच्छति इत्यर्थः तत्रापि अनेनैव चतुर्थी विभक्तिः कश्चन प्रश्नः गमनाय आगच्छति इफ् हि गोस् फार् द पर्पस् आफ् कमिङ्ग् वेल् मेबी थियरेटिकलि इट् शुड् बि करेक्ट् बट् that doesn't we don't know what is the vivaksha he comes just for going Theoretically, the prayoga would be correct. Ramanaya agachati, but does it make sense? We have to think, what is the vivaksha? What is the question about dhai? पठ इत्यस्मान् धै प्रत्यय पाठः इति भवति सत्यम् धै इति तपि कृत्वा नाम कृत् प्रत्यय रमन्ते योगिनः अस्मिन् इति रामः रमधातोः धै प्रत्यय कृते रामः सो सफिक्स् वेर् यू हाव् दट् अ एंड देयर इज सम कार्य देयर आर मेनी पाठः लेखः बहुषु धै प्रत्ययः ओन्ली प्रत्ययस् आर कृत् प्रत्ययः So everywhere, Vidyalaya Gamanaya Agachati, it is samicheenam. Satyam, sarvatra anenaiva, gamanam, it is sarvatra bhavavachana asyati pratyayaha, sumachhatya bhavavachana, ityanena, chitatri bhakti si bhavati. Any more questions? Very popular sutra and popular prayoga. Ghai litoh madhye bhedaha kaha. Pathaha pathanam saha bhedaha rupe bhedaha. So ghai will lead to a different form and this will lead to a different form. समाने अर्थे बहवः प्रत्ययाः भवितुम् अर्हन्ति यथा पाचकः पक्ता इत्यस्ति नुल् सृच् इति प्रत्ययद्वयम् नुल् प्रत्यये कृते पाचकः सृच् प्रत्यये कृते पक्ता उभयोः समानः अर्थः कर्तृत्वे प्रत्ययौ इति उच्यते अत्रापि भेदः नास्ति भावार्थे एव यदा प्रत्ययाः विधीयन्ते अथवा क्रियार्थायां क्रियायाम् इत्यनेन यदा विधीयन्ते तदा अर्थे भेदः नास्ति क्वचित् अर्थे भेदः स्यात् घञ् मैट् बीन् अदर् सेन्सेस् एण्ड् ल्युट् मैट् बीन् अदर् सेन्सेस् अर्थे भेदः भवेत् इति नास्ति नमस् स्वस्ति स्वाहा स्वधा अलम् वषट् इति षट् पदानि निर्दिश्यन्ते एतेषां योगे एतेषां प्रयोगे अनेन पदार्थेन सह युक्ताः युक्तं यत् पदं तस्य चतुर्थी विभक्ति इति भवति चतुर्थी सम्प्रदाने इत्यतः चतुर्थी इति अनुवर्तते एभिः योगे चतुर्थी स्यात् हरये नमः वेरि आब्वियस् एव्रिबडि विल् नो दिस् उपपदविभक्तेः कारकविभक्तिः बलीयसि As we discussed just now, Edatu namaskaroti ityasti kriyaya kriyaati nirdishyate tada karaka vibhaktihi nama dvitiya eva bhavati devan namaskaroti. Devebhyo namaha devan namaskaroti. Namaha iti avyayam, sakarantam avyayam. Svasti ityate avyayam, prajabhya svasti. Shubham bhuyat ityate svasti ityate ityate prayodhyaha prajabhyaha iti chaturthi vibhaktihi. Abhinaye swaha. Swaha, swadha, vashat. All these are used in sacrifices. Dravyam uddishya. Abhinam uddishya ki mumpi dravyam diyate. So whenever you are offering something, you use swaha. Abhinaye swaha. Pitribhya swadha. Swadha is also an avyaya which is used in yagas in the same context. Maha ityarthe eva pitribhya swadha iti prayogah. Alam iti paryaptyartham grahanam. Alam iti uchyate. Alam ityane kim dushyate iti vyate. పర్యాప్త్యర్థ గ్రహణం, పర్యాప్తం నామ ఉదాహరణం పశ్యతు దైత్యేభ్యో హరిహి అలం. హరి ఇస్ ఇనఫ్ ఫార్ ద డెమన్, హి ఇస్ కేపబుల్ ఆఫ్ ఓవర్కమింగ్ ద డెమన్. హి ఇస్ హిజ్ పవర్ ఆర్ హిస్ శక్తి ఇస్ ఇనఫ్ టు ఓవర్కమ్ ద దైత్యాస్ ఇత్యర్థే దేవ పర్యాప్త్యర్థం. హి ఇస్ ఈక్వల్ ఆర్ కేపబుల్ ఆఫ్ ఆర్ looking for some word which I'm not getting. పర్యాప్తి ఇత్యనేన అత్ర సామర్థ్యం ద్యోత్యతే. సో దైత్యేభ్యః హరిః అలం, సో హరి ఇస్ ఇనఫ్ ఆర్ హి ఇస్ కేపబుల్ ఆఫ్ టేకింగ్ కేర్ ఆఫ్ ద దైత్యస్ ఆఫ్ ద డీమన్స్ ఇత్యర్థే ప్రయోగః. సో అదర్ వర్డ్స్ విచ్ ఆర్ ఇన్ ద సేమ్ సెన్స్ విల్ ఆల్సో గెట్ చతుర్థి బై దిస్ పర్యాప్త్యర్థ గ్రహణం. ఆల్ వర్డ్స్ ఇన్ దిస్ సెన్స్, రామః రావణాయ అలం సత్యం, దట్ ఇస్ ద ఉదాహరణ. Rama is enough for that, is he is equal or perhaps more powerful than Ravana, that is the vivaksha. Atayeva daityebhyo harihi prabhuho samarthaha shaktaha. In all these examples you get chaturthi vibhakti. Prabhavi yoge shashti api sathuho prabhuho samarthaha shaktaha etesham prayoge shashti vibhaktihi api bhavati jyotyate. కథం జ్ఞాయతే ఇతి చేత పాణినేః ప్రయోగైః జ్ఞాయతే. సో ది షష్ఠీ విభక్తి అండ్ చతుర్థి, బోత్ చతుర్థి అండ్ షష్ఠీ కెన్ బి యూజ్డ్, ఇట్ ఇస్ బీయింగ్ గివెన్ బై పాణిని హింసెల్ఫ్. హి హింసెల్ఫ్ యూజెస్ ప్రయోగాస్. తస్మై ప్రభవతి సంతాపాదిభ్యః ఇది ఏకం సూత్రమస్తి, పంచమాధ్యాయే స్థితం సూత్రం. ఇన్ దట్ సూత్ర హి సేస్ తస్మై ప్రభవతి, హి ఇస్ యూజింగ్ చతుర్థీ విభక్తి. తేషాం గ్రామణీ ఇది పునః పంచమాధ్యాయే అన్యస్మిన్ సూత్రే, ఏషాం గ్రామణీ, గ్రామణీ నామ తదేవ ప్రభుః ఇత్యర్థః, నాయకః ఇత్యర్థః. తస్మిన్ అర్థే ఏషాం గ్రామణీ ఇది షష్ఠీ విభక్తిః ప్రయుజ్యతే పాణినినా. కదాచిత్ తస్మై ప్రభవతి ఇత్యాదిషు చతుర్థీ విభక్తిః ఉపయుజ్యతే, త ఏషాం గ్రామణీ ఇత్యత్ర షష్ఠీ విభక్తిః ఉపయుజ్యతే. అతః ప్రభ్వాది యోగే షష్ఠీ విభక్తేః అపి సాధుత్వం అస్తి ఇతి ఉచ్యతే. తేన ప్రభుర్బుభూషు భువనత్రయస్య ఇత్యాది సిద్ధం. సో బికాస్ ఆఫ్ దట్ దేర్ ఆర్ అదర్ కావ్య ప్రయోగాస్ విచ్ హి సపోర్ట్ సబ్స్టాన్షియేట్ బై దిస్. భువనత్రయస్య ప్రభుః బుభూషుః, విచ్ మీన్స్ వాంటింగ్ టు కాంకర్ ద ఎంటైర్ వరల్డ్ ఆర్ ఆల్ ద త్రీ వరల్డ్స్ ఆర్ వాంటింగ్ టు బి ఇనఫ్. ప్రభుః బుభూషుః, భువనత్రయస్య ప్రభుః బుభూషుః ఇతి ప్రయోగః. కుత్ర ప్రయోగః ఇతి న జానామి, ఐ డోంట్ నో వేర్ దిస్ ప్రయోగ ఇస్ టేకన్ ఫ్రమ్. ప్రభుర్బుభూషిర్ భువనత్రయస్య ఇత్యాది సిద్ధం, దట్ ఇస్ వై షష్ఠీ ఇస్ ఆల్సో ఓకే, చతుర్థి ఇస్ ఆల్సో ఓకే. అంటే వషట్ ఇంద్రాయ, ఇంద్రాయ వషట్, స్వాహ సదా వషట్ ఇత్యాదిషు అర్థేషు ఇంద్రాయ వషట్ ఇది చతుర్థి. నమస్తస్య స్వాహ స్వధా అలం వషడ్ యోగాచ. ఫలమిత్యస్య యోగే తృతీయా విభక్తిః యదా భవతి తదా అర్థః భిన్నః. వి ఆల్రెడీ రీడ్ ఇట్. అలం శ్రమేణ, శ్రమేణ సాధ్యం నాస్తి, ఇట్ ఇస్ నాట్ పాసిబుల్ టు నిషేధార్థతః అలమర్థ అలం తత్ర, అత్ర తు పర్యాప్త్యర్థకస్య అలమః. అలం ఇత్యస్య ప్రయోగే చతుర్థి, నిషేధార్థకస్య అలం ఇత్యస్య ప్రయోగే తృతీయ. Vashat, it is again a thing used in Swahakara, it is used for, like Swaha, you are offering something, when exactly to use Swaha, Swadha, Vashat, I don't know, I mean, it has to be known from people who are versed in Mimamsa, Yageshu Upayujyate, Sarve Samanarthakaha, Swaha, Swadha, Vashat. సకారః పునర్విధానార్థః, నమస్తస్య స్వాహ సుధాలం వషడ్యోగాత్ చ ఇతి ఉచ్యతే. సకారస్య కిం ప్రయోజనం ఇతి ప్రశ్నః. ఇఫ్ యు జస్ట్ సెడ్ నమస్తస్య స్వాహ సుధాలం వషడ్యోగాత్, చతుర్థీ సంప్రదానే ఇత్యతః చతుర్థీ ఇతి అనువర్తతే, చతుర్థీ భక్తిః భవతి, స किमर्थम् इति प्रश्नः तकारः पुनर्विधानार्थः इट् इस् फार् एम्फोसिस् इति किमर्थम् इति चेत् तेन आशीर्विवक्षायाम् परामपि चतुर्थी चाशिष्यायिष्य मद्रभद्र कुशलसुखात्मैतैः इति षष्ठीम् बाधित्वा चतुर्थ्येव भवति. लेटर् इन् षष्ठी विभक्ति प्रकरण इत्युक्ते आशिषि आयुष्य मद्रभद्र इत्यादिषु सो इन् आशीरर्थ जनर् ब्लेस्सिङ्ग् इस् इण्टेण्डेड् चतुर्थी च इति उच्यते षष्ठी इति न वर्तते. षष्ठी विल् आल्सो अकर् षष्ठी चतुर्थी उभयोः प्रयोगः भवति आशीरर्थे इत्यस्ति. सो वेनवर् आशीः इस् इण्टेण्डेड् देर् इस् अ सूत्र देर् इस् अ लेटर् सूत्र विच् गिव्स् बोत् चतुर्थी एण्ड् षष्ठी विभक्ति. नौ देर् इस् आशीः एण्ड् देर् इस् स्वस्ति. स्वस्ति गोभ्यो भूयात् इत्यस्ति. स्वस्ति इत्यस्य प्रयोगः अस्ति. भूयात् इति आशीरर्थकस्यापि प्रयोगः अस्ति. नौ शुड् वी डू चतुर्थी वै चतुर्थी चाशिष्य सोरि नमस्वस्ति स्वाहा और शुड् वी केन् वी डू षष्ठी आल्सो वै चतुर्थी चाशिष्यायुष्य इति क्वश्चन्. सो विल् इट् बी ऑप्शनल चतुर्थी एण्ड् षष्ठी वै दिस् सूत्र और् अ कम्पल्सरी चतुर्थी वै नमस्वस्ति इति क्वश्चन्. उभयोः सूत्रयोः प्राप्तौ किं करणीयम् इति चेत् परसूत्रम् ऑलवेज वेन देर इज अ क्लैश बिटवीन टू सूत्र वी टेक द परसूत्र. सो इफ देर इज अ क्लैश वी वुड हैव टू टेक दिस परसूत्र विच इज चतुर्थी चाशिष्यायुष्य मद्रभद्र एक्सेट्रा एंड षष्ठी विभक्ति वुड अकर. दट इज वॉट शुड हैपन. किन्तु चकारः पुनर्विधानार्थः इति उक्तम्. वेर एवर देर इज चकार आई मीन द चकार इन दिस सूत्र इट इज फॉर एम्फसिस. इट सेज एतेषां पदानां योगे व्हेन एसोसिएटेड विद दिस there should be chaturthi only. Because of that, even though chaturthi jashishyashya is the parasutra, overruling that, chaturthi will have occur. Svasti gobhyaha bhoyat iti chaturthi eva shashti vibhakti hi na bhavati. You will not have shashti here. It is because of the emphasis created by chakara. Chakara says when these words are there, it has to be chaturthi only and not any other vibhakti. मल्यकर्मण्यनादरे विभाषा अप्राणिषु इति अग्रिमं सूत्रम्. चत्वारि पदानि सन्ति. मल्यकर्मणि अनादरे विभाषा अप्राणिषु चतुर्थी सम्प्रदाने चतुर्थी इति वर्तते. मन्यकर्मणि मन धातुः अस्ति. मन धातोः कर्मणि मन्यते इत्यर्थः ज्ञायते इत्यर्थः. मनज्ञाने इति धातुः. मन्यतेः कर्मणि तस्य यत् कर्मपदं भवति तस्य चतुर्थी विकल्पेन भवति. तिरस्कारे गम्यमाने इन् तिरस्कार डिस्गस्ट् इस् इण्टेण्डेड् और् तिरस्कार contempt. Tiraskara is contempt. When you indicate contempt, tada karmanah manudhatoho yat karmapadam tasya chaturthi vibhakti hi bhavati vikalpena. Natvam trinam manye trinayava. So chaturthi is more occasive in indicating that contempt because of this sutra. Natvam trinaya manye. I do not consider you to be equal even to a grass. I do not consider you even as a blade of grass. Natvam trinaya manye. Natvam trinam manye. I do not think you to be a blade of grass. Tatra karma padam bhavati trinam. Tatyaya tiraskare dyoche chaturthi api vikalpena bhavati. Natvam trinam manye. Natvam trinaya manye. Shana nirdeshat tanadika yoge na iti uchyate. Manya karmani ityatra. Actually the dhatu is only manu dhatu ho. मन्य इति निर्दिश्यते. किमर्थम् इति चेत् मन् इति धातुद्वयं विद्यते. टु धातु फैड् मन् मनज्ञाने इति दिवादिः. इट् बिलाङ्ग्स् टु द फोर्थ् गण दिवादिगण ष्यन्विकरणः. दिवादिभ्यः ष्यन् इत्यनेन दिवादिगणीयानां धातूनां ष्यन् इति विकरणप्रत्ययः विधीयते. मनु अवबोधने इति अपरः धातुः. अर्थसमानः ज्ञानाण्ड् अवबोधनात् सेम् टु नो. किन्तु अयं मनु अवबोधने इति धातुः तानादिकः. तनादिः अष्टमः गणः.
ಉಕರಣ ಪ್ರತ್ಯಯ ಸನಾಡಿಸೇಭ್ಯ ಉಹು ಇತ್ಯನೇನ ಉ ವಿಕರಣ ಪ್ರತ್ಯಯ. ಸೊ ಗಣಾಗಮ ಧಾತು ಆರ್ ಆಲ್ವೇಸ್ ಡಿಫ್ರೆನ್ಶಿಯೇಟೆಡ್ ಬೈ ದೇರ್ ವಿಕರಣ ಪ್ರತ್ಯಯ. ಶನಾನಿರ್ದೇಶ ಸಿನ್ಸ್ ಪಾಣಿನಿ ಇಸ್ ಯೂಸಿಂಗ್ ಮನ್ಯ ಯ ಇಸ್ ದ ಶ್ಯನ್ ಪ್ರತ್ಯಯ, ಇಟ್ ಮೀನ್ಸ್ ದಟ್ ದಿಸ್ ಸೂತ್ರ ವಿಲ್ ಅಪ್ಲೈ ಓನ್ಲಿ ಫಾರ್ ದ ಮನಧಾತು ಆಫ್ ದ ಫೋರ್ಥ್ ರಣ. ದೈವಾಧಿಕಸ್ಯೈವ ಮನಧಾತೋಃ ವಿಷಯೇ ಇದಂ ಸೂತ್ರಂ ಪ್ರವರ್ತತೆ. ತಾನಾದಿಕ ಯೋಗೇ ತನಾದಿಗಣಸ್ಯ ಯಃ ಮನಧಾತುಃ ತಸ್ಯ ಪ್ರಯೋಗೇ ಚತುರ್ಥೀ ವಿಭಕ್ತಿಃ ನ ಭವತಿ. ನತ್ವಾಂ ತೃಣಂ ಮನ್ವೇ ಮನುತೆ ಮನ್ವಾತೆ ಮನ್ಮತೆ ಇತಿ ತನಾದಿಗಣಸ್ಯ ರೂಪಾಣಿ. ಮನ್ಯತೆ ಮನ್ಯೇತೆ ಮನ್ಯಂತೆ ಇತಿ ದಿವಾದಿಗಣಸ್ಯ ಧಾತೋಃ ರೂಪಾಣಿ. ಯದಾ ತನಾದಿಗಣಸ್ಯ ಧಾತೋಃ ಪ್ರಯೋಗಃ ಮನ್ವೇ ಮನುತೆ ಮನ್ವಾತೆ ಮನ್ವತೆ ಮನುಷ್ಯೇ ಮನ್ವಾತೆ ಮನ್ವೇ ಮನ್ವೇ ಇತಿ ಯದಾ ತನಾದಿಗಣಸ್ಯ ಧಾತೋಃ ಪ್ರಯೋಗಃ ತದಾ ಚತುರ್ಥೀ ವಿಭಕ್ತಿಃ ನಾಸ್ತಿ ನತ್ವಾಂ ತೃಣಂ ಮನ್ವೇ.
ದ್ವಿಕರ್ಮಕತ್ವಂ ಮತ್ವಾಂ ತೃಣಂ ಮನ್ವೇ
ಅರ್ಥ ಸೇವ. ಐ ಡು ನಾಟ್ ಕನ್ಸಿಡರ್ ಯು ಆರ್ ಐ ಡು ನಾಟ್ ಸೀ ಯು ಇವನ್ ಅಸ್ ಅ ಬ್ಲೇಡ್ ಆಫ್ ಗ್ರಾಸ್. ದಿಸ್ ಇಸ್ ಯುವರ್ ಇವನ್ ವರ್ಸ್ ದನ್ ದಟ್ ಇತ್ಯರ್ಥ.
ಕಥಂ ದ್ವಿಕರ್ಮಕತ್ವಂ ಮತ್ವಾಂ ತೃಣಂ ಮನ್ವೇ ಮನಧಾತು ನಾಸ್ತಿ. ಕಥಂ ತ್ವಾಂ ತೃಣಂ ಇತ್ಯುಭಯೋಃ
ತೃಣಾಯ ಮನ್ವೇ ಇತಿ ಅಸಾಧುಃ. ಸತ್ಯಂ ಮನ್ವೇ ಇತ್ಯಸ್ಯ ತನಾದಿಗಣಸ್ಯ ಧಾತೋಃ ಪ್ರಯೋಗೇ ಚತುರ್ಥೀ ನ ಭವತಿ ಅಸಾಧುರೇವ. ತೃಣಾಯ ಮನ್ವೇ ಇತಿ ಸಾಧು. ಅಪ್ರಾಣೀಷು ಇತ್ಯಸ್ತಿ ಮನ್ಯಕರ್ಮಣ್ಯನಾದರೆ ವಿಭಾಷಾ ಅಪ್ರಾಣಿಷು. ಅಪ್ರಾಣಿಷು ಇತ್ಯಸ್ಯ ಕಃ ಅರ್ಥ ಪ್ರಾಣಿವರ್ಜೆ ಇತಿ ದತ್ತಂ. ಅರ್ಥಾತ್ ವೆನ್ ದಟ್ ಥಿಂಗ್ ಇಸ್ ನಾಟ್ ಅ ಪ್ರಾಣಿ, ವಿಚ್ ಇಸ್ ನಾಟ್ ಅನ್ ಆನಿಮಲ್, ತದಾ ತೃಣ, ವಿಚ್ ಇಸ್ ವೈ ಹಿ ಗೇವ್ ಅನ್ ಎಕ್ಸಾಂಪಲ್ ಆಫ್ ತೃಣ, ವಿಚ್ ಮೀನ್ಸ್ ದಟ್ ಇಟ್ ಇಸ್ ಅನ್ ಅನಿಮಲ್. ಇಫ್ ಯು ಆರ್ ಸೇಯಿಂಗ್ ನತ್ವಾಂ ಸಮಥಿಂಗ್, ಯದಾ ಯದಿ ಪ್ರಾಣಿ ನಿರ್ದಿಶ್ಯತೆ ತದಾ ಚತುರ್ಥಿ ನ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಕಿಂತು ವಾರ್ತಿಕ ಕಾರಣ ಪರಿಷ್ಕಾರಃ ಕ್ರಿಯತೆ. ಅಪ್ರಾಣಿಷು ಇತಿ ಅಪನೀಯ ನೌಕಾಕ ಅನ್ನ ಶುಕ ಸೃಗಾಲ ವರ್ಜೇಶು ಇತಿ ವಾಚ್ಯಂ. ಡೋಂಟ್ ಸೇ ಜನರಲಿ ಅಪ್ರಾಣಿಷು ಇತಿ ನ ವಕ್ತವ್ಯಂ. ಪಾಣಿನಿ ಸೇಯಿಂಗ್ ಅಪ್ರಾಣಿಷು ವಿಲ್ ನಾಟ್ ಬಿ ಕರೆಕ್ಟ್. ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದಟ್ ಯು ಶುಡ್ ಸೇ ನೌ ಕಾಕ ಅನ್ನ ಶುಕ ಸೃಗಾಲ ವರ್ಜೇಶು. ಅದರ್ ದನ್ ದೀಸ್ ಫೈವ್ ಸರ್ವತ್ರ ಚತುರ್ಥಿ ಭವತಿ. ಏತಾನಿ ಪಂಚಪದಾನಿ ವಿಧಾಯ ಅನ್ಯೇಷಾಂ ಪ್ರಯೋಗೇ ತಿರಸ್ಕಾರ ಗಮ್ಯಮಾನೆ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ ವಿಕಲ್ಪೇನ ಭವತಿ. ನೌ ಕಾಕ ಅನ್ನ ಶುಕ ಸೃಗಾಲ ಇತ್ಯಸ್ತಿ. ಅತಏವ ನತ್ವಾಂ ನಾವಂ ಮನ್ಯೇ. ಐ ಡು ನಾಟ್ ಥಿಂಕ್ ಯು ಆರ್ ಫಿಟ್ ಟು ಬಿ ಅ ನೌಹು ನಮ ಶಿಪ್. ದ ವ್ಯಾಖ್ಯಾನಕಾರ ಸೇಸ್ ಇಟ್ ಇಸ್ ದಿಸ್ ರಿಮಾರ್ಕ್ ಇಸ್ ಅಡ್ರೆಸ್ಡ್ ಟುವರ್ಡ್ಸ್ ಅನ್ ಓಲ್ಡ್ ಶಿಪ್ ವಿಚ್ ಇಸ್ ಬ್ಯಾಟರ್ಡ್ ಶಿಪ್. ಜೀರ್ಣ ನಾವಂ ಪ್ರತಿ ಇದಂ ವಾಕ್ಯಂ. ಅಡ್ರೆಸಿಂಗ್ ಜೀರ್ಣನಾಮ ಅಂಡ್ ಯು ಥಿಂಕ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಫಿಟ್ ಎನಫ್ ಟು ಬಿ ಎ ಶಿಪ್. ಯು ಆರ್ ಶೋಯಿಂಗ್ ಯರ್ ಕಂಟೆಂಪ್ಟ್ ಅಂಡ್ ಯು ಆರ್ ಸೇಯಿಂಗ್ ಇಟ್ ಈಸ್ ಓನ್ಲಿ ಸ್ವಾಮ್. ಯು ಡಿಡ್ ನಾಟ್ ಡೈರೆಕ್ಟ್ಲಿ ಟಾಕ್ ಟು ಎ ಶಿಪ್. ಯು ಕ್ಯಾನ್ ಸೇ ನತಾಂ ನಾವಂ ಮನ್ಯ. ಐ ಡು ನಾಟ್ ಥಿಂಕ್ ಇಟ್ ಇಸ್ ಅ ಶಿಪ್ ಆರ್ ಐ ಡು ನಾಟ್ ಥಿಂಕ್ ಇಟ್ ಇಸ್ ಫಿಟ್ ಎನಫ್ ಟು ಬಿ ಎ ಶಿಪ್. ತಸ್ಮಿನ್ ಅರ್ಥೆ ನ ನಾವಂ ಮನ್ಯೆ ಇತಿ ಪ್ರಯೋಗ. ತದಾ ಕಿಮಸ್ತಿ ನೌಹು ತಿರಸ್ಕಾರ ಗಮ್ಯತೆ. ಅಪ್ರಾಣಿ ನೌ ಇಸ್ ನಾಟ್ ಎ ಪ್ರಾಣಿ ತಥಾಪಿ ತತ್ರ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ ಹಿ ನ ಭವತಿ. ಕಿಮರ್ಥಂ ನೌ ಕಾಕಾನ್ನ ಶುಕ ಸೃಗಾಲ ವರ್ಜೇಶು ಅದರ್ ದನ್ ದೀಸ್ ದರ್ ಇಸ್ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ. ಸೊ ನತಂ ಕಾಕಂ ಮನ್ಯೆ ಅಗೇನ್ ಆಲ್ ದೀಸ್ ಇನ್ ಕಂಟೆಂಪ್ಟ್. ಯು ಹ್ಯಾವ್ ಟು ಸೀ ವಾಟ್ ಇಸ್ ದ ಮೀನಿಂಗ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ಕಾಂಟೆಕ್ಸ್ಟ್. ನತ್ವಾಂ ಶುನೇ ಮನ್ಯೆ ಶ್ವಾ ನಾಮ ಶುನಕಃ. ಸೊ ಐ ಡು ನಾಟ್ ಯು ಆರ್ ನಾಟ್ ಫಿಟ್ ಟು ಬಿ ಎ ಡಾಗ್ ಆರ್ ಐ ಡು ನಾಟ್ ಟ್ರೀಟ್ ಯು ಆಸ್ ಈಕ್ವಲ್ ಇವನ್ ಟು ಅ ಡಾಗ್. नत्वं शुनेवन्ये इत्यत्र प्राणित्वेति इवन दो श्वा इज अ प्राणी तत्र चतुर्थी भवति इवन दो नौ इज नॉट अ प्राणी चतुर्थी न भवति दैट इज वाई पाणिनि सेइंग अप्राणिषु इज नॉट करेक्ट वार्तिककारः करेक्ट इज सेइंग अप्राणिषु इति अपनीय टेक अवे दैट अप्राणिषु एंड से नौ काकान्न श्रगाल वर्जेषु अदर देन दीस फाइव सर्वत्र मनुधातोः प्रयोगे दैवादिकस्य मनुधातोः प्रयोगे तिरस्कारे गम्यमाने चतुर्थी विभक्तिः विकल्पेन भवति ओके एंड द लास्ट सूत्र इन चतुर्थी विभक्ति चतुर्थी विभक्ति प्रकरणे अंतिमं सूत्रमस्ति प्रत्यर्थ कर्मणि द्वितीया चतुर्थौ चेष्टायाम् अनध्वनि प्रयोगः बहुधा अस्ति अस्य अध्वभिन्ने प्रत्यर्थानां कर्मणि प्रत्यर्थकधातूनां प्रयोगे कर्मपदस्य द्वितीया चतुर्थौ स्तः द्वितीया विभक्तिरपि भवति चतुर्थी विभक्तिरपि भवति दट इज द प्लेन मीनिंग ओके प्रत्यर्थकधातूनां प्रयोगे द्वितीया विभक्तिः भवति कर्मपदस्यैव द्वितीया अपि भवति चतुर्थी अपि भवति ग्रामं गच्छति ग्रामाय गच्छति The question is asked very frequently by people. Gramaya gacchati iti katham chatutthi. Because grama is the karma pada. Karma pada shiva. Anena sutrena chatutthi vibhaktihi vikalpena uchyate. Gramam gacchati, gramaya gacchati. Ityubhayam sadhu. Cheshtayam ityuchyate. Cheshta namaka. Sharira parispandaha cheshta. The movement of the body is called cheshta. That is when there is actual physical movement. तदा एव चतुर्थी विभक्तेः अपि प्रयोगः चेष्टायां किम् सो वै मनसा हरिं व्रजति हि रीचेस् हरि थ्रू हिज माइंड व्रजति नाम गच्छति इत्येव अर्थः मनसा हरिं व्रजति हि मेंटली हि रीचेस् हरि इत्यर्थे चेष्टा नास्ति नाम शारीरपरिस्पन्दः नास्ति देयर इज नो फिजिकल मूवमेंट तदा गत्यर्थकानां प्रयोगे अपि चतुर्थी विभक्तिः न भवति द्वितीया एव मनसा ग्रामं गच्छति हि मेंटली गोस् टु हिज विलेज इत्युक्ते ग्रामं गच्छति इत्येव यदा तु वस्तुतः सः गच्छति तदा ग्रामं गच्छति ग्रामाय गच्छति इत्युभयं भवति चेष्टाभावे चतुर्थी विभक्तिः न भवति अनध्वनि किं पन्थानं गच्छति प्रत्यर्थकर्मणि द्वितीया चतुर्थौ चेष्टायाम् अनध्वनि अधिकरण विवक्षायां पथि गच्छति इति भवति तस्यैव कर्मत्व विवक्षायां ही इज मूविंग ऑन द पाथ सो विथ ईच स्टेप ही इज ऑन द पाथ सो पाथ इज फ्रॉम वेयर ही इज गोइंग पाथ इज टू वेयर ही इज गोइंग अतः कर्मत्व विवक्षायां तत्र द्वितीया अपि भवितुम् अर्हति तदा पन्थानं गच्छति इति प्रयोगः हि मूव्स अलोंग द पाथ इत्यर्थे पन्थानं गच्छति इति प्रयोगः तदा तु चतुर्थी न भवति अनध्वनि अध्वा नाम मार्गः सो मार्गार्थकानां अध्वा मार्गः पन्थाः इत्यादिर्थकानां चतुर्थी विभक्तिः न भवति पन्थानं गच्छति इति प्रयोगः एक्सेप्शन हि सेज गन्त्रा अधिष्ठिते अध्वनि एव अयम् निषेधः सो दिस् निषेध अप्लैस् दट् इस् अध्वनि न भवति इत्युक्ते कस्मिन् अध्वनि न भवति गन्त्रा अधिष्ठिते अध्वनि द पात् अलोङ्ग् विच् द हूएवर् इस् गोयिङ्ग् इस् मूविङ्ग् गन्त्रा गन्ता इस् द पर्सन् हू गोस् तेन अधिष्ठिते अध्वनि द पात् आन् विच् हि इस् तस्य निषेधः भवति अर्थात् चतुर्थी न भवति यस्मिन् मार्गे सः गच्छति तं मार्गं गच्छति इत्येव भवति मार्गाय गच्छति इति न भवति यदा तु उत्पथात् पन्था एव आक्रमितुम् इष्यते देन् ही इस् चेञ्जिङ्ग् पात् दट् इस् ही इस् गोयिङ्ग् आन् द राङ्ग् रूट् ही वाण्ट्स् टु कम् बेक् टु द रैट् रूट् तदा किमुच्यते तदा चतुर्थी भवति उत्पथेन पथे गच्छति उत्पथः द राङ्ग् पात् फ्रम् द राङ्ग् पात् ही गोस् टु द रैट् पात् पथे गच्छति इति चतुर्थी विभक्तिः अस्ति कथम् इति चेत् हि इस् चेञ्जिङ्ग् हिस् पात् हियर् पथे गच्छति इत्यस्य इट् डस् नाट् मीन् हि कण्टिन्यूस् टु मूव् अलोङ्ग् हिस् पात् हि इस् कमिङ्ग् फ्रम् द राङ्ग् पात् टु द रैट् पात् यदा तु उत्पथात् पन्था एव आक्रमितुम् इष्यते तदा चतुर्थी भवत्येव. सो देर् विल् बि चतुर्थी विभक्ति. उत्पथेन पथे गच्छति. उत्पथेन उज्जयिनीं प्राप्तुम् अशक्तः. हि इस् ट्रैङ्ग् टु गो टु उज्जयिनी. हि काट् द राङ्ग् रूट्. हि इस् नाट् एबल् टु रीच् उज्जयिनी. उत्पथं परित्यज्य उज्जयिनी मार्गं प्रविशति. सो हि लीव्स् द राङ्ग् रूट् एण्ड् एण्टर्स् द रैट् पाथ् टु उज्जयिनी इत्यर्थः. तदा तु चतुर्थी भवति. यदा इट् ऐ मीन् द विवक्षा इस् दट् हि इस् मूविङ्ग् अलाङ्ग् द पाथ्. पन्थानं गच्छति. सो हि इस् मूविङ्ग् अलाङ्ग् द पाथ् विच् हि हेस् टेकन्. तस्मिन् अर्थे यदा प्रयोगः तदा चतुर्थी न भवति इत्यर्थः. इट् इस् अ रेर् एक्सेप्शन्. लिविङ्ग् इट् असैड् प्रत्यर्थकानां प्रयोगे द्वितीया विभक्तिरपि भवति चतुर्थी अपि भवति. सो दट् इस् द सूत्र इस् यूस्ड् वेरि वेरि फ्रीक्वेण्ट्ली. सो दिस् इस् अबौट् चतुर्थी विभक्ति. अत्र चतुर्थी विभक्ति प्रकरणम् अत्र समाप्यते. एनि क्वेश्चन् यु केन् आस्क् आर् यु केन् गो थ्रू दीस् अगेन् अण्ड् यु केन् आस्क् थ्रू मेल्स् आर् नेक्स्ट् क्लास् वेनेवर्. श्वः कक्ष्या न भवति. देर् इस् नो क्लास् टुमारो. सो नेक्स्ट् क्लास् विल् बि नेक्स्ट् साटर्डे 6 o'clock. एनि क्वश्चन्स् नौ? अष्टाध्यायी कक्ष्या भवति श्वः. मम सिद्धान्तकौमुदी MA कक्ष्या न भवति. एनाक्षरसमां नाहिम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाषित वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.